सङ्कल्पकल्पलतिकाम् अवधिम् क्षमायाः स्वेच्छावराह महिषीम् सुलभानुकम्पाम् विश्वस्य मातरमकिञ्चन कामधेनुम् विश्वम् भराम शरणः शरणम् प्रपद्ये सङ्कल्पकल्पलतिकाम् अवधिम् क्षमायाः स्वेच्छावराह महिषीम् सुलभानुकम्पाम् विश्वस्य मातरमकिञ्चन कामधेनुम् विश्वम् भराम शरणः शरणम् त्वाम् व्याहः प्रथमतः प्रणव प्रियम् ते संवेदयत् अखिलमन्त्रगणस्तमेव तम् प्रतीत विभवाम् इतरेष्विदानीम् स्तोतुम् यथावदवने कलिवार्हति त्वाम् नित्यम् हिताहित विपर्यय बद्ध भावे त्वद्वीक्षणैक विनिवर्त्य बहुव्यपाये मुग्धाक्षरैरखिलधारिणि मोदमाना मातस्तनन्धय धियम् मयि वर्तयेथाः सङ्कल्प किङ्कर चराचर चक्रवाळम् सर्वातिशायिनमनन्तशयस्य पुंसः भूमानमात्मविभवै पुनरुक्तयन्ति वाचाम् अभूमिरपि भूमिरसि त्वमेका वेदस्तृणावधि विहार परिच्छदम् ते विश्वम् चराचरतया विधि विद्यमानम् अम्ब त्वदाश्रिततया परिपोषयन्ति विश्वम् भरस्य दयितासि तदेकनामा सर्वम् सहेत्यवनिरित्य चलेति मातः विश्वम् भरेति विपुलेति वसुन्धरेति अन्यानि चान्य विमुखान्यभिधानवृत्या नामान्यमूनि कथयन्ति तवानुभावम् तापान् क्षिपन् प्रसविता सुमनोगणानाम् प्रच्छाय शीतलतल प्रदिशन् फलानि त्वत्सङ्गमाद्भवति माधवि लब्ध पोषः साकाशतैर्हति गतो हरिचन्दनोऽसौ स्मेरेण वर्धित रसस्य मुखेन्दुना ते निःस्पन्दताम् विजहतो निजया प्रकृत्या विश्रान्ति भूमिरसि तत्त्व तरङ्ग पङ्क्तेः वेलेव विष्णु जलधेरपृथग् भवन्ति स्वाभाविके वसुमति श्रुतिभिर्विभाव्ये पत्युर्महिम्नि भवतीम् प्रतिपन्नवासाम् शङ्के विमानवहन प्रतिमासमानाः स्तम्भेरमप्रभृतयोऽपि वहन्ति सत्त्वाः सम्भावयन्मधुरिपु प्रणयानुरोधात् वक्षस्थलेन वरुणालय राजकन्याम् विश्वम्भरे बहुमुख प्रतिपन्न भोगः शेषात्मनाथ भवतीम् शिरसा ददाति क्रीडावराह दयिते कृतिनक्षितेन्द्राः सङ्क्रन्दनस्तरितरेऽपि दिशा मधीशाः आमोदयन्ति भुवनान्यलिकाश्रितानाम् अम्बत्वदङ्घ्रिरजसाम् परिणामभेदैः भूतेषु यत्त्वदभिमानविशेषपात्रम् पोषम् तदेव भजतीति विभावयन्तः भूतम् प्रभूतगुणपञ्चकमाद्यमेतत् प्रायो निदर्शनतया प्रतिपादयन्ति कान्तस्तवैष करुणा जलधिप्रजानाम् आज्ञातिलङ्घनवशात् उपजातरोषः अन्नाय विश्वजननि क्षमया भवत्या सर्वावगाहन सहाम् उपयात्यवस्थाम् आश्वासनाय जगताम् पुरुषे परस्मिन् आपन्न रक्षण दशाम् अभिनेतु कामे अन्तर्हितेतर गुणात् अबला स्वभावात् औदन्वते पयसि मज्जनमभ्यनैषीः पूर्वम् वराह वपुषा पुरुषोत्तमेन प्रीतेन भोगि सदने समुदीक्षितायाः पादाहताः प्रलयवारिधयस्तवासन् उद्वाहमङ्गलविधे रुचिता मृदङ्गाः व्योमातिलङ्घिनि विभो प्रलयाम्बुराशौ वेषन्तलेश इव मातुमशक्यमूर्तेः सद्यः समुद्रवसने सरसैरकाशीः आनन्दसागरमपारमपाङ्गपादैः दंश्राविदारितमहासुरशोणिताङ्कैः अङ्गैः प्रियस्तव ददे परिरम्भलीला सा ते पयोधिजलकेलिसमुत्थितायाः सैरन्ध्रिकेव विदधे नवमङ्गरागम् अन्योन्यसंवरणजृम्भिततूर्यघोषैः संवर्तसिन्धुसलिलैर्विहिताभिषेका एकातपत्रयसि विश्वमिदम् गुणैस्वैः अध्यास्य भर्तुरधिकोन्नतमम् सपीठम् भर्तस्तमालरुचिरे भुजमद्यभागे पर्याय मौक्तिकवते पृषदैः पयोदैः तापानुबन्धशमनी जगतान्त्रयाणाम् तारापथे स्फुरसि तारकिता निषेव आसक्तवासवशरासनपल्लवैस्त्वाम् संवृद्धयेषु बतडिद्गुणजालरम्यैः देवेश दिव्यमहिषीम् धृतसिन्धुतोयैः जीमूतरत्नकलशैरभिषिञ्चतिद्यौः आविर्मदैरमरदन्तिभिरुह्यमानाम् रत्नाकरेण रुचिराम् रशना गुणेन मातस्त्रिलोकजननीम् वनमालिनीम् त्वाम् मायावराहमहिषीम् अवयन्ति सन्तः निष्कण्टकप्रसमयोगनिषेवणीयाम् छायाविशेषपरिभूतसमस्ततापाम् स्वर्गापवर्गसरणिम् भवतीमुशन्ते स्वच्छन्दसूकरवधूम् अवधूतपङ्काम् गण्डोज्ज्वलाम् गहनकुन्तलदर्शनीयाम् शैलस्तनीम् तरलनिर्जरलम्बहाराम् श्यामाम् स्वतस्त्रीगसूकरगेहिनित्वम् व्यक्तिम् समुद्रवसनाम् उभयीम् बिभर्षि निःशंशयैर्निगमसीमनि विष्णुपत्नी प्रख्यापितम् भृगुमुखैर्मुनिभिः प्रतीतैः पश्यन्त्यनन्न परदीरससंस्तुतेन सन्तः समाधिनयनेन तवानुभावम् सञ्चोदिता करुणया चतुरप्पुमर्थान् व्यातन्वती विविधमन्त्रगणोपगीता सञ्चिन्त्यसे वसुमतिस्थिरभक्तिबन्धैः अन्तर्बहिश्च बहुधा प्रणिधानदक्षैः क्रीडाग्रहीतकमलादिविशेषचिह्नाम् विश्राणिताभयकराम् वसुधे सभूतिम् दौर्गत्य दुर्विषविनाशसुधानदीम् त्वाम् सञ्चिन्तयन् हि लभते धनदाधिकारम् उद्वेलकल्मषपरम् परिदादमश्यात् उत्तंसितेन हरिमञ्जलिनाप्यदृश्यम् आकस्मिकोऽयमधिगम्य यति प्रजानाम् अम्ब त्वदीयकरुणा परिणाम एव प्रत्येकमब्दनियुतैरपि दुर्व्यपोहात् प्राप्ते विपाकसमये जनितानुतापात् नित्यापराधनिवहाच्चकितस्य जन्तोः गन्तुम् मुकुन्दचरणो शरणम् क्षमेत्वम् त्राणाभिसन्धि सुभगेऽपि सदा मुकुन्दे संसारतन्त्रवहनेन विलम्बमाने रक्षाविधौ तनुभृतामनगानुकम्पा मातः स्वयम् वितनुषे महतीमपेक्षा धर्मद्रुहम् सकलदुष्कृतिसार्वभौमम् आत्मानविज्ञमनुतापलवोज्जितम् मा वैतानसूकरपतेश्चरणारविन्दे सर्वम् सहेननु समर्पयितुम् क्षमात्वम् तापत्रयीम् निरवधिम् भवती दयाद्राः संसारगर्मजनिताम् सपदि क्षिपन्तः माधर्भजन्तु मधुरामृतवर्षमैत्रीम् मायावराहदयिते मयिते कटाक्षाः पत्युर्दक्षिणपाणिपङ्कजपुटे विन्यस्तपादाम्बुजा वामम् पन्नगसार्वभौमसदृशम् पर्यङ्कयन्ति भुजम् पोत्रस्पर्शलसत्कपोलफलका फुल्लारविन्देक्षणा सा मे पुष्यतु मङ्गलान्यनुदिनम् सर्वाणि सर्वम् सह पत्युर्दक्षिणपाणिपङ्कजपुटे विन्यस्तपादाम्बुजा वामम् पन्नगसार्वभौमसदृशम् पर्यङ्कयन्ती भुजम् पोत्रस्पर्शलसत्कपोलफलका पुल्लारविन्देक्षणा सा मे पुष्यतु मङ्गलान्यनुदिनम् सर्वाणि सर्वम् सह अस्येषाना जगत इति या श्रूयते विष्णुपत्नी तस्या स्तोत्रम् विरचितमिदम् वेङ्कटेशेन भक्त्या श्रद्धाभक्तिप्रचय गुरुणा चेतसा संस्तुवानः यद्यत्काम्यम् सपदि लभते तत्र तत्र प्रतिष्ठा अस्येषाना जगत इति या श्रूयते विष्णुपत्नी तस्या स्तोत्रम् विरचितमिदम् वेङ्कटेशेन भक्त्या श्रद्धाभक्तिप्रचय गुरुणा चेतसा संस्तुवानः यद्यत्काम्यम् सपदि लभते तत्र तत्र प्रतिष्ठा